ओम नमो भगवते वासुदेवाय। अथ त्रयोविंशोऽध्यायः। बादरायणिरुवाच, स एवमाशंसित उद्धवेन भागवत मुख्येन दासार्ह मुख्यः, सभाजयन् भृत्यवचो मुकुन्दस्तमाबभाषे श्रवणीय वीर्यः। श्रीभगवानुवाच, बारहस्पत्यस वै नात्र साधुर्वै दुर्जनेरितैः, दुरुक्तैर्भिन्नमात्मानं यः समाधातुमीश्वरः, न तथा तप्यते विद्धः पुमान् बाणैः सुमर्मगैः, यथा तुदन्ति मर्मस्था यसतां परुषेशवः, कथयन्ति महत्पुण्यमितिहासमिहोद्धव, तमहं वर्णयिष्यामि निबोध सुसमाहितः। केनचित् भिक्षुणा गीतं परिभूतेन दुर्जनैः, स्मरता धृतियुक्तेन विपाकं निजकर्मणाम्, अवन्तिषु द्विजः कश्चित् आसीदाध्यतमश्रिया, वार्तावृत्ते कदर्यस्तु कामी लुब्धोति कोपनः, ज्ञातयोतिथयस्तस्य वाङ्मात्रेणापि नार्जिताः, शून्यावसथ आत्मापि काले कामैरनर्जितः, दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः, दारादुहितरो भृत्या विषण्णा नाचरन् प्रियम्, तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकतः, धर्मकामविहीनस्य चुक्रुतुः पञ्चभागिनः, तदवध्यानविस्रस्त पुण्यस्कन्धस्य भूरिद, अर्थोऽप्यगच्छन्निधनं बह्वायासपरिश्रमः, ज्ञातयोजगृहु किञ्चित् किञ्चिद्दस्यव उद्भव, दैवतः कालतः किञ्चित् ब्रह्मबन्धोर्नृपार्थिवात्, स एवं द्रविणेनष्टे धर्मकामविवर्जितः, उपेक्षितश्च स्वजनैश्चिन्तामापदुरत्ययाम्, तस्यैवं ध्यायतो दीर्घं नष्टरायस्तपस्विनः, खिद्यतो बाष्पकण्ठस्य निर्वेदः सुमहानभूत्, स चाहेदमहो कष्टं वृथात्मा मेनुतापितः, न धर्माय न कामाय यस्यार्थाया स ईदृशः, प्रायेणार्था कदर्याणां न सुखाय कदाचन, इह चात्मोपतापाय मृतस्य नरकाय च, यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः, लोभः स्वल्पोऽपि तान् हन्ति स्वित्रो रूपमिवेप्सितम्, अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये, नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम्, स्तेयं हिंसा नृतं दम्भः कामः क्रोधः स्मयो मदः, भेदो वैरमविश्वासः संस्पर्धा व्यसनानि च, एते पञ्चदशानर्थायर्थमूला मता नृणाम्, तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत्, भिद्यन्ते भ्रातरो दारा पितरः सुहृदस्तथा, एका स्निग्धा काकिणिना सद्यः सर्वेरयः कृताः, अर्थेनाल्पीयसाह्येते संरब्धा दीप्तमन्यवः, त्यजन्त्याशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम्, लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद्विजाग्र्यताम्, तदनादृत्य ये स्वार्थं घ्नन्ति यान्त्य शुभां गतिम्, स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान्, द्रविणेकोऽनुसज्जेत मर्त्यो नर्थस्य धामनि, देवर्षिपितृभूतानि ज्ञातीन् बन्धूंश्च भागिनः, असं विभज्य चात्मानं यक्षवित्तः पतत्यथः, व्यर्थयार्थे हया वित्तं प्रमत्तस्य वयो बलम्, कुशला येन सिध्यन्ति जरसः किं नु साधये, कस्मात् संक्लिश्यते विद्वान् व्यर्थयार्थे हया सकृत्, कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः, किं धनैर्धनदैर्वा किं कामैर्वा कामदैरुत, मृत्युना ग्रस्यमानस्य कर्मभिर्वोत जन्मदैः, नूनं मे भगवान् स्तुष्टः सर्वदेवमयो हरिः, येन नीतो दशामेतां निर्वेदश्चात्मनः प्लवः, सोऽहं कालावशेषेण शोषयिष्येऽङ्गमात्मनः, अप्रमत्तोऽखिलस्वार्थे यदि स्यात् सिद्ध आत्मनि, तत्र मामनुमोदेरन् देवास्त्रिभुवनेश्वराः, मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत्। श्रीभगवानुवाच, इत्यभिप्रेत्य मनसा यावन्त्यो द्विजसत्तमः, उन्मुच्य हृदयग्रन्थीन् शान्तो भिक्षुरभून्मुनिः, स चचार महीमेतां संयतात्मेन्द्रियानिलः, भिक्षार्थं नगरग्रामानसङ्गो लक्षितो विशत्, तं वै प्रवयसं भिक्षुमवधूतमसज्जनाः, दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः। केचित् त्रिवेणुं जगृहुरेके पात्रं कमण्डलुं पीठं चैकेक्षसूत्रं च कन्थां चीराणि केचन। प्रदाय च पुनस्तानि दर्शितान्याददुर्मुनेः अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित्तटे। मूत्रयन्ति च पापिष्ठा स्थीवन्त्यस्य च मूर्धनि। यत वाचं वाचयन्ति तादयन्ति न वक्ति चेत् तर्जयन्त्यपरे वाग्भिः स्तेनोऽयमिति वादिनः। बध्नन्ति रज्वातं केचित् बध्यतां बध्यतामिति। क्षिपन्त्येकेव जानन्त एष धर्मध्वजः शठः। क्षीणवित्त इमां वृत्तिमग्रहीत् स्वजनोद्धितः। अहो एष महासारो धृतिमान् गिरिराडिव मौनेन साधयत्यर्थं भगवत् दृढनिश्चयः। इत्येके विहसन्त्येन मेके दुर्वातयन्ति च तं बबन्धुर्निरुरुधुर्यथा क्रीडनकं द्विजम्। एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् भोक्तव्यमात्मनोदिष्टं प्राप्तं प्राप्तमबुध्यत। परिभूतैमां गाथामगायत नराधमैः पातयद्भिः स धर्मस्थो धृतिमास्थाय सात्विकीम्। द्विज उवाच नायं जनो मे सुखदुःखहेतुर्न देवतात्मा ग्रहकर्मकालाः। मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद् यत् मनोगुणान् वै सृजते बलीयस्ततश्च कर्माणि विलक्षणानि। शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाश्रितयो भवन्ति। अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचष्टे। मनः स्वलिङ्गं परिगृह्य कामाञ्जुषन्निबद्धो गुणसङ्गतोऽसौ। दानं स्वधर्मो नियमोऽयमश्च श्रुतं च कर्माणि च सद्व्रतानि। सर्वे मनो निग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः। समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम्। असंयतं यस्य मनो विनश्यत् दानादिभिश्चेदपरं किमेभिः। मनोवशेन्येय भवन् स्वदेवा मनश्च नान्यस्य वशं समेति। भीष्मो हि देवा सहसः सहीयान् युञ्ज्याद्वशे तं स हि देवदेवः। तं दुर्जयं शत्रुमसह्य वेग मरुन्तुदं तन्न विजित्य केचित्। कुर्वन्त्य सद्विग्रहमत्र मर्त्यैर्मित्राणि उदासीन रिपून् विमूढाः। देहं मनो मात्रमिमं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः। एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति। जनस्तु हेतु सुखदुःखयोश्चेत् किमात्मनश्चात्र भौमयोस्तत्। जिह्वां क्वचित् सन्दशति स्वदद्भिस्तद्वेदनायां कतमाय कुप्येत्। दुःखस्य हेतुर्यदि देवतास्तु किमात्मनस्तत्र विकारयोस्तत्। यदङ्गमङ्गेन निहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्वदेहे। आत्मा यदि स्यात् सुखदुःखहेतुः किमन्यतस्तत्र निजस्वभावः। न हि आत्मनोऽन्यत् यदि तन्मृषा स्यात् क्रुध्येत कस्मान्न सुखं न दुःखम्। ग्रहानिमित्तं सुखदुःखयोश्चेत् किमात्मनोजस्य जनस्य ते वै। ग्रहैर्ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस्ततोऽन्यः। कर्मास्तु हेतु सुखदुःखयोश्चेत् किमात्मनस्तद्भिजडा जडत्वे। देहस्त्वचित् पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम्। कालस्तु हेतु सुखदुःखयोश्चेत् किमात्मनस्तत्र तदात्मकोऽसौ। नाग्नेर्हि तापो न हिमस्य तत्स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम्। न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य। यथाहम संसृतिरूपिणः स्यादेवं प्रबुद्धो न बिभेति भूतैः। एतां स आस्थाय परात्मनिष्ठा मध्यासितां पूर्वतमैर्महर्षिभिः। अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव। श्रीभगवानुवाच निर्विद्य नष्टद्रविणो गतक्लमः प्रव्रज्यतां पर्यतमान इत्थम्। निराकृतो सद्भिरपि स्वधर्मादकम्पितो मुनिराह गाथाम्। सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः। मित्रोदासीनरिपवः संसारस्तमसः कृतः। तस्मात् सर्वात्मना तात निगृहाण मनो धिया मय्यावेशितया युक्त एतावान् योगसङ्ग्रहः। यएताम् भिक्षुणा गीताम् ब्रह्मनिष्ठाम् समाहितः धारयन् श्रावयन् शृण्वन् द्वन्द्वैर्नैवाभिभूयते। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादशस्कन्धे त्रयोविंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।